एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समितेः गतदिने उपविष्टेन उपवेशेन सर्वकारेण आनीतम् सांविधानिक परिषद सम्बद्धम् अध्यादेशम् प्रत्यावर्तयितुम् संसदः अधिवेशनम् अभियाच्य राष्ट्रपति कार्यालय अर्पणाय निर्मितस्य आवेदनस्य प्रक्रियाम् अग्रे न वर्धापयितुम् च निर्णीतम् वर्तते। उपवेशस्य पश्चात् नेकपा दलस्य प्रवक्ता नारायणकाल श्रेष्ठः स्थायी समितेः उपवेशे नेकपा दलस्य अध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना मंगलवासरे उपविष्टे सांविधानिक परिषदः उपवेशे सांविधानिक निकायस्य नियुक्त्या सह सम्बद्धः कोऽपि निर्णयः न विहितः इति ज्ञापितम् इति संचारकर्मिणः अबोधयत्। प्रवक्ता श्रेष्ठा स्थायी समितेः अपर उपवेश अस्यैव पौषस्य पञ्चमे दिवसे वस्तेति अवोचत। पूर्वं पौषस्य पञ्चम दिवसाय निर्धारितः केन्द्रीय समितेः उपवेशः पौषस्य दशमे दिवसे वस्तेति प्रवक्ता श्रेष्ठः ज्ञापितवान्। नेपाली कांग्रेस दलेन संसदः अधिवेशनम् तत्कालम् आह्वातुम् अभियाचितमस्ति। सभापतेः शेरबहादुर देउवाविदस्य बुढानीलकण्ठवर्तिनी निवासे ह्यः उपविष्टेन पदाधिकारिणाम् पूर्व पदाधिकारिणाम् च उपवेशेन संघीय संसदः अधिवेशनम् अविलम्बम् आह्वातुम् अभियाचितमिति नेपाली कांग्रेस दलस्य प्रवक्ता विश्वप्रकाश शर्मा अज्ञापयत्। सर्वकारेण सम्प्रत्येव क्रियान्वितः सांविधानिक परिषदः कार्यकर्तव्याधिकार सम्बद्धः अध्यादेशः संविधानस्य मर्मणः भावनायाश्च विपरीतोऽस्तीति निश्चित्य उपवेशेन अध्यादेशं तत्कालं प्रत्यावर्तयितुमपि अभियाचितमस्ति। सर्वकारेण क्रियान्वितस्य सांविधानिक परिषदः कार्यकर्तव्याधिकार सम्बद्धस्य अध्यादेशस्य अन्य सामयिक राजनीतिकस्य च विषयेषु विमृष्टुं स्वपौषस्य तृतीये दिवसे संसदीय दलस्य उपवेशम् आह्वातुं निर्णीतमिति प्रवक्ता शर्मा अबोधयत्। उपवेशेन इक्षु कृषकाणां याचनां संश्रुत्य कृषकेभ्य तत्कालम् अवशिष्टं देयवित्तं प्रदापयितुं सर्वकारस्य पक्षता आवश्यक प्रयत्नाय समन्वयनाय च अभियाचितम् वर्तते। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ तर्कयति सर्वकारम् कार्य सम्पादनाय अवरुद्ध बन्धकम् विधातुम् अपेक्षितम् इत्यतः आवश्यकतायाः कारणेनैव सर्वकारः अध्यादेशम् आनेतुम् बाध्यो वर्तते। नेपाल पत्रकार महासंघेन संचार क्षेत्रे दृष्टाः समस्याः एतासाम् समाधानञ्च इति विषये ह्यः काष्ठमण्डपे आयोजिते विमर्शन कार्यक्रमे मन्त्री गुरूङ कोरोना विषाणोः महामार्या सर्वेषाम् क्षेत्राणाम् आक्रान्तेः अवस्थातः उत्थानाय ऐक्यबद्धानि भवितुं सर्वाणि क्षेत्राणि अन्वरुणत। सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ सांविधानिक परिषदः क्रियाशीलतायै केवलं मार्गोद्घाटनार्थम् अध्यादेश विकल्पस्य रूपेण अग्रेसारिता इति समस्पष्टयत। मन्त्री गुरूङ व्यतर्कयत् राष्ट्रस्य संविधानस्य च विफलकारिणः षड्यन्त्रात् मोचनाय एव सर्वकारेण बाध्यतावशात् कार्याणि चालितानि सन्ति। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा योगेश कुमार भट्टराई इत्यनेन मन्त्रालयस्य अन्तर्गतः विकास समितयः मासद्वयस्य अभ्यन्तरे सम्पत्ति विवरणं मन्त्रालये प्रस्तोतुं निर्दिष्टाः सन्ति। पर्यटन मन्त्रालयस्य अन्तर्गताभिः संस्कृति सम्बद्ध विकास समितिभिः सह ह्यः विहितायाम् अन्तरक्रियायां मन्त्री भट्टराई गुरूयोजनाः निर्मिताः चेत् मन्त्रालये प्रस्तोतुं नो चेत् तत्कालं निर्माणस्य कार्याणि प्रारब्धुं च अन्वरुणत्। मन्त्री भट्टराई विकास समितीनाम् एकीकृता अधिनियमं निर्माय एकीकरणस्य योजनास्थिति बोधयन् मितव्ययिताम् अवलम्बितुम् दानद्रव्यं पारदर्शिनं व्यवस्थितञ्च विधाय लेखापरीक्षणम् अनिवार्यं विधातुम् अनियमेन व्ययीकृतं वित्तं समाधातुं च निर्दिष्टवान्। गृहमन्त्रालयेन शैत्यात् नागरिकान् रक्षितुम् एतद् विक्रमाब्दीयं शीतलहरी हिमपात विपद संकट न्यूनीकरण प्रतिकार्य मार्गदर्शनम् स्वीकृत्य क्रियान्वितम् वर्तते। शीतकालस्य प्रारभणेन सैव शीतलहर्या हिमपाताच्च जनधनयो क्षतिम् रोद्धुम् मार्गदर्शनम् क्रियान्वीय सप्तसप्तत्याम् एव जनपदेषु चरणबद्ध रूपेण पूर्वकार्याणि प्रारब्धानि वर्तन्ते। स्थानीय जनपद विपद व्यवस्थापन समित्या तत्कालमेव अवस्थाम् अधीत्य विवरणं संकलय्य साधन स्रोतसां न्यूनतास्ति नवेति परिचित्य तेषां व्यवस्थां विधातुम् अपर्याप्त सामग्री केन्द्रात् याचयितुं च मार्गदर्शने उल्लिखितं वर्तते। अवरस्तरात् प्राप्त प्रतिवेदनानाम् आधारेण संघीय सर्वकारात् आवश्यक सहयोगस्य व्यवस्थापनस्य च कार्यक्रमाणां सञ्चालनस्य व्यवस्था मार्गदर्शने विहिता अस्ति। कोरोना विषाणुना संक्रान्तानां जनानां कृते मोबाइल एप्स चलभाषा संसूचनस्य माध्यमेन प्लाज्मा नामधेयस्य रोग प्रतिरोधी रक्तांश पदार्थ सिद्धानाय अनुरोधाय च स्वास्थ्य मन्त्रालयेन अनुरुद्धं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः संक्रान्तानां जनानाम् उपचाराय सहयोग प्रापणस्य उद्देश्येन अस्माकं स्वास्थ्यमिति चलभाषा संसूचन प्रविधौ रोग प्रतिरोधी रक्तांश पदार्थस्य दान विषयिणी अनुरोध विधा इनी च सेवा प्रदत्ता स्थिति अज्ञापयत। प्रवक्ता डाक्टर गौतमः विभिन्नेषु सामाजिक सञ्जालेषु रोग प्रतिरोधी रक्तांश पदार्थस्य दानाय अनुरोधः विधीयमानोस्तीति हेतोः संक्रमणस्य अनन्तरं पूर्णतः प्राप्त स्वास्थ्य लाभैर्जनै रोग प्रतिरोधी रक्तांश पदार्थ दातुं सक्रिय संक्रान्तजनान् रोग प्रतिरोधी रक्तांश पदार्थस्य दानाय अनुरुद्धुम् एव संसूचन प्रविधेः सहयोगः प्राप्तुं च शक्यते इत्यवदत्। संक्रमण दर्शनस्य अनन्तरं चतुर्दश दिनानि यावत् एकान्तवासे निवसन्तिभिः व्यक्तिभिः लक्षणे न दृष्टे पुनः परीक्षणम् आवश्यकं न भवतीति अबोधयत्। कोरोना विषाणोः संक्रमणात् ह्यः 847 जनाः मुक्ताः सन्ति। एतदनु नेपाले कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या 249,16,17 प्राप्येति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। तथ्याङ्कानाम् अनुसारेण ह्यस्तनावधि संक्रमणात् मुक्तानां जनानां प्रतिशतं 10.4% वर्तते। गतदिने अतिरिक्तेषु 37,77 कोरोना संक्रमणं पुष्टीभूतं वर्तते। आराष्ट्रं 5,550 च निदर्शनानां पीसीआर विधिना परीक्षणं विहितं सत्। 45,74 पुरूषेषु 91,102 महिलासु च संक्रमणं पुष्टीभूतं वर्तते। एतदनु नेपाले ह्यस्तनावधि कोरोना विषाणुना संक्रान्तानां जनानां समग्र संख्या 2,50,16,9% प्राप्तास्ति। ह्यस्तनावधि आराष्ट्रं कोरोना विषाणुना 9,50,77 सक्रिय संक्रान्ताः जनाः सन्ति। कोरोना संक्रमणेन ह्यतिरिक्ताः 13 जनाः मृताः। कोरोना संक्रमणेन ह्यस्तनावधि मृतानां जनानां समग्र संख्या 1,043,77 प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। नेपाली कांग्रेस दलस्य सभापतिना सेवाद्योगाभिधेन सह नेपालोद्योग वाणिज्य महासंघस्य नवनिर्वाचिता पदाधिकारिणो ह्य अमिलन्। महासंघस्य अध्यक्षस्य शेखर गोल्छाविदस्य नेतृत्वे वरिष्ठोपाध्यक्षेण चन्द्रप्रसाद ढकालेन सहितेन प्रतिनिधिमण्डलेन मेलने नवीन नेतृत्व त्वेन कोविड 19 संकटस्य अवस्थायां राष्ट्रस्य अर्थतन्त्रस्य सकुशलम् उत्थानाय नैज क्षेत्रस्य परामर्शै सहितं दृष्टिकोण प्रपत्रं निर्मीयमाणम् अस्तीति ज्ञापितम् इति समाचारः।